इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा। अथ वार्ताः। असम केरल पुदुचेरी इत्येतेषु नगरेषु विधानसभा निर्वाचनानि समेत्य त्रिराज्याणां चतुर्षु विधानसभा क्षेत्रेषु उपनिर्वाचनाय मतदानं ह्यः शान्तिपूर्णम् आसीत्। निर्वाचनायोगानुसारेण असमराज्ये 83.85% यावत् मतदानं जातं, तत्रैव पुदुचेरी इत्यत्र 83.89% यावत् मतदानं जातम्, यत् तत्रत्य विधानसभा निर्वाचनस्य इतिहासे सर्वाधिकमासीत्। केरलराज्ये 0.378% यावत् मतदानं जातम्। कर्णाटकस्य बागलकोट आसने जाते उपनिर्वाचने 0.68% मतदानं जातम्। तत्रैव दक्षिण दावनगेरे इत्यत्र 5.5% मतदानं जातम्। नागालैंड राज्यस्य कोरीडांग इत्यत्र 2.82%, त्रिपुरा राज्यस्य धर्मनगर इत्यत्र 80% मतदानं अभवत्। मुख्य निर्वाचनायुक्त ज्ञानेश कुमारः निर्वाचनायुक्तेन डॉ एसएस संधु इत्येतेन, डॉ विवेक जोशी इत्येतेन च सह मतदान प्रक्रियायाः निरीक्षणं कृतवान्। भाजपा दलस्य वरिष्ठ नेता प्रधानमंत्री च नरेन्द्र मोदी ह्यः हल्दिया आसनसोल सूरी इत्येतेषु स्थलेषु परिवर्तन संकल्प सभां संबोधयन् अवोचत् यत् पश्चिम बंगाले प्रचलितं निर्वाचनं राज्यस्य पूर्व वैभवस्य पुनः स्थापनस्य अभियानं वर्तते इति। तमिलनाडु इत्यत्र मुख्य प्रचारकः सह निर्वाचनाभियानं द्रुतगत्या प्रचलति। भाजपा दलस्य वरिष्ठ नेता केन्द्रीय मंत्री च पीयूष गोयलः, डॉ एल मुरुगन, पूर्व नेता अन्नामलाई च राष्ट्रीय जनतांत्रिक संयुत्यै मतदातृन् आक्रष्टुं संलग्नानि सन्ति। विदेश मंत्रिणा डॉ एस जयशंकरेण कथितं यत् भारत मॉरिशस देशयोः मध्ये सहमतौ गतवर्षे महत्वपूर्णा प्रगतिः जाता। पोर्ट लुईस इत्यत्र मॉरिशस देशस्य प्रधानमन्त्रिणा नवीन रामगुलाम इत्येतेन सह मेलनानन्तरं वार्ताहरान् संसूचयन् डॉ जयशंकरः अवोचत् यत् सामुद्रिक सहयोगं, विकास सहमतिं, स्वास्थ्यं, शिक्षां, क्षमता निर्माणं, जनानां मध्ये संबंधान् च समेत्य नैकेषु क्षेत्रेषु चर्चा जाता। असौ मॉरिशस देशस्य विकास प्राथमिकतानुरूपं भारतस्य निरन्तर समर्थनं पुनरुक्तवान्। डॉ जयशंकरः नवम हिन्द महासागर सम्मेलने भागग्रहणार्थं ह्यः मॉरिशस देशं सम्प्राप्तवान्। विदेश सचिवः विक्रम मिश्री इत्यसौ स्वीय वाशिंगटन यात्रावधौ अमेरिका देशस्य विदेश मन्त्रिणा मार्को लूबियो इत्येतेन सह उपवेशनं कृतवान्। उपवेशनं व्हाइट हाउस इत्यत्र जातं, तथा प्रमुख क्षेत्रेषु द्विपाक्षिक सहयोगं सुदृढीकर्तुं चर्चा जाता। असौ उक्तवान् यत् अग्रिमे मासे सचिवः रूबियो भारतम् आगमिष्यति इति सम्भाव्यते। इतः प्राक् श्री मिसरी अमेरिका देशस्य राजनीतिक प्रकरणानां मन्त्रिणा एलिसन हूकर इत्येतेन सह मेलनं कृतवान्। आईपीएल इति क्रिकेट प्रतिस्पर्धायां कोलकातायाः ईडन गार्डन्स इत्यत्र ह्यः रात्रौ लखनऊ सुपर जॉयंट्स दलेन कोलकाता नाइट राइडर्स दलं 30 पराजितम्। अद्य गुवाहाट्याः एसीए क्रीडांगणे राजस्थान रॉयल्स दलं रॉयल चैलेंजर्स बेंगलुरु दलं सम्मुखी करिष्यति। ध्यानास्पदं वर्तते यत् इयं स्पर्धा सायं 7:30 प्रारप्स्यते। इति वार्ताः।